13th श्लोक ऑफ गंगा स्तोत्रम येषां
येषां येषां येषां
हृदये
हृदये हृदये हृदये
गंगा भक्ति
गंगा भक्ति गंगा भक्ति गंगा भक्ति
तेषां भवति
तेषां भवति तेषां भवति तेषां भवति
सदा सुखमुक्ति
सदा सुखमुक्ति सदा सुखमुक्ति सदा सुखमुक्ति
मधुर
मधुर मधुर मधुर
मनोहर
मनोहर मनोहर
पज्जतिकाभि
पज्जतिकाभि पज्जतिकाभि पज्जतिकाभि
परमानन्द
परमानन्द परमानन्द परमानन्द
कलित
कलित कलित कलित
ललिताभि
ललिताभि ललिताभि ललिताभि
येषां हृदये गंगा भक्ति
येषां हृदये गंगा भक्ति येषां हृदये गंगा भक्ति येषां हृदये गंगा भक्ति
तेषां भवति सदा सुखमुक्ति
तेषां भवति सदा सुखमुक्ति तेषां भवति सदा सुखमुक्ति तेषां भवति सदा सुखमुक्ति
मधुर मनोहर पज्जतिकाभि
मधुर मनोहर पज्जतिकाभि मधुर मनोहर पज्जतिकाभि मधुर मनोहर पज्जतिकाभि
परमानन्द कलित ललिताभि
परमानन्द कलित ललिताभि परमानन्द कलित ललिताभि परमानन्द कलित ललिताभि
येषां हृदये गंगा भक्ति
येषां हृदये गंगा भक्ति येषां हृदये गंगा भक्ति येषां हृदये
तेषां भवति सदा सुखमुक्ति
तेषां भवति सदा सुखमुक्ति तेषां भवति सदा सुखमुक्ति तेषां भवति सदा सुखमुक्ति
मधुर मनोहर पज्जतिकाभि
मधुर मनोहर पज्जतिकाभि मधुर मनोहर पज्जतिकाभि मधुर मनोहर पज्जतिकाभि
परमानन्द कलित ललिताभि
परमानन्द कलित ललिताभि परमानन्द कलित ललिताभि परमानन्द कलित ललिताभि
येषां हृदये गंगा भक्ति तेषां भवति सदा सुखमुक्ति मधुर मनोहर पज्जतिकाभि परमानन्द कलित ललिताभि
येषां हृदये गंगा भक्ति तेषां भवति सदा सुखमुक्ति मधुर मनोहर पज्जतिकाभि परमानन्द कलित ललिताभि येषां हृदये गंगा भक्ति तेषां भवति सदा सुखमुक्ति मधुर मनोहर पज्जतिकाभि परमानन्द कलित ललिताभि येषां हृदये गंगा भक्ति तेषां भवति सदा सुखमुक्ति मधुर मनोहर पज्जतिकाभि परमानन्द कलित ललिताभि
Those who have devotion, from Mother Ganga, always get happiness, and they attain liberation. This beautiful and lyrical Ganga Stuti is the source of supreme bliss. So she grants happiness and liberation. That's what is told here. Ganga Stotram
Ganga Stotram Ganga Stotram Ganga Stotram
Idam Bhavasaram
Idam Bhavasaram Idam Bhavasaram Idam Bhavasaram
Vanchita Faladam
Vanchita Faladam Vanchita Faladam Vanchita Faladam
Vimalam Saram
Vimalam Saram Vimalam Saram Vimalam Saram
Shankara Sevaka
Shankara Sevaka Shankara Sevaka Shankara Sevaka
Shankara Rachitam
Shankara Rachitam Shankara Rachitam Shankara Rachitam
Patati Cha
Patati Cha Patati Cha Patati Cha
Bina Vinayam
Vinayam Vinayam Vinayam
Iti Cha Samaptam
Iti Cha Samaptam Iti Cha Samaptam Iti Cha Samaptam
Gangastotramidam Bhavasaram
Gangastotramidam Bhavasaram Ganga stotram idam bhavasaram
Vanchita
Faladam Vimalam Saram
Vanchita Faladam Vimalam Saram Vanchita Faladam Vimalam Saram Vanchita Faladam Vimalam Saram
Shankara Sevaka Shankara Rachitam
Shankara Sevaka Shankara Rachitam Shankara Sevaka Shankara Rachitam Shankara Sevaka Shankara Rachitam
Patati Cha Vinidyam Iti Cha Samapta
Patati Cha Vinidyam Iti Samaptam Patati Cha Vinidyam Iti Samaptam Patati Cha Vinidyam Iti Samaptam
गंगा स्तोत्रमिदं भवसारं वांछितफलदं विमलं सारं शंकरसेवक शंकररचितं पठति च विनिद्यं इति च समाप्तः
गंगा स्तोत्रमिदं भवसारं वांछितफलदं विमलं सारं शंकरसेवक शंकररचितं पठति च विनिद्यं इति च समाप्तः गंगा स्तोत्रमिदं भवसारं
This Ganga Stotram written by Sri Adi Shankaracharya, devotee of Lord Shiva, purifies us and fulfills all our desires. So if you want anything spiritual, so you can pray to, you can recite this prayer. So all your wishes will be fulfilled. श्री गंगा देवी की
जय
श्रीपाद आदि शंकराचार्य की
जय
श्री प्रभुपाद की
जय